तर्हि सन्धिविषये पाठः प्रवर्तमानः अस्ति. गीताप्रवेशः प्रथमभागः इति पुस्तकस्य प्रथमः पाठः. तत्र एतावत् पर्यन्तं वयं सन्धेः परिचयं प्राप्तवन्तः किञ्चित्. वयं जानीमः एव यत् सन्धिः इति वर्णविज्ञानस्य विषयः अस्ति, नाम वर्णानाम् अतिशयेन सन्निधिः अथवा सामीप्यं यदा भवति तदा वर्णयोः अथवा एकस्य एव वर्णस्य वा विकारः जायते चेत् तत्र सन्धिः इति उच्यते इति वयं जानीमः. सन्धिकरणसमये चत्वारि कार्याणि भवन्ति तदा सन्धिः इति वदामः. एतैः चत्वारि कार्यैः एव वर्णानां विकारः अथवा परिवर्तनं जायते सन्धिसमये. तर्हि एतानि कार्याणि कानि इति विद्या भगिनी वदति वा किञ्चित्?
आं भगिनि, सन्धिकार्याणि आदेशः अथवा आगमः, लोपः अतः प्रकृतिभावः. आदेशः इत्युक्ते
एकनिमिष सर्वे सप्तमपुटं पश्यन्तु, पुस्तके सप्तमपुटं पश्यन्तु. तत्र सन्धिकार्याणि चतुर्विधानि इति प्रदर्शितम् अस्ति सप्तमे पुटे. सन्धिः यदा भवति तत्र आदेशः, आगमः, लोपः, प्रकृतिभावः इति भवति. तदेव अधुना विद्या भगिनी प्रतिपादयति. अस्तु भगिनि.
आदेशः इत्युक्ते पूर्वं स्थितस्य वर्णस्य स्थाने नूतनवर्णस्य उदयः भवति. यथा पुस्तके यदि अपि इति उदाहरणमस्ति, तत्र इकारस्य यदि इति पदस्य अन्ते इकारः अस्ति, अनन्तरम् अपि इति पदस्य आरम्भे अस्ति, अत्र इकारस्य स्थाने यकारः, एकस्य पदस्य स्थाने यकारः. अन्यत्र उदाहरणे द्वयोः पदस्य अपि स्थाने भवितुमर्हति. आदेशः शत्रुवत् कार्यं करोति इत्युक्ते एकस्य स्थाने आगच्छति. अनन्तरम् आगमः वदामि वा भगिनि?
आं भगिनि.
आगमः इत्युक्ते किमपि वर्णः कुत्रापि न गच्छति, नूतनवर्णः आगच्छति. आगमः मित्रवत् कार्यं करोति. अत्र उदाहरणम् अनिच्छन् योगः अपि इति अस्ति. तत्र अनिच्छन् इति पदे पदान्ते नकारः अस्ति, अनन्तरम् अपि इति पदे अकारः अस्ति. अत्र अकारस्य पूर्वं नकारः, नूतनवर्णः आगच्छति. आगमः मित्रवत् कार्यं करोति इत्युक्ते नूतनवर्णः आगच्छति.
हा, कोऽपि वर्णः अपगच्छति वा आगमस्य स्थले?
कोऽपि वर्णः न गच्छति, तथा एव तिष्ठति. वर्णाः तथा एव तिष्ठति, नूतनवर्णः उदयः भवति, नूतनवर्णस्य उदयः भवति.
समीचीनम्. इति आगमः. तर्हि यदा सन्धिः भवति तत्र प्रथमतया आदेशः अथवा आगमः अथवा तृतीयबिन्दुः भगिनि?
तृतीयबिन्दुः लोपः. लोपः इत्युक्ते वर्णः एकस्य वर्णस्य अपगच्छति, वर्णः अपगच्छति, अदर्शनं, वर्णस्य अदर्शनं लोपः. अत्र उदाहरणं समवेताः ईयुत्सवः इति अस्ति. तत्र समवेताः अन्ते विसर्गः अस्ति, अत्र एतस्मिन् उदाहरणे विसर्गः, विसर्गस्य लोपः भवति अत्र. तद् लोपः इति लोपः इति वदामः. अनन्तरं प्रकृतिभावः इत्युक्ते यत्र सन्धि कार्यं भवितुम् अर्हति, परन्तु तत्र सन्धिः न भवति, मूलप्रकृत्या एव तिष्ठति, वर्णः मूलप्रकृत्या एव तिष्ठति, तदा प्रकृतिभावः इति उच्यते.
समीचीनमस्ति. तर्हि प्रकृतिभावस्थले उक्तमस्ति निमित्ते सत्यपि लोपादेः अभावः. अत्र लोपादेः इति उक्तं, तस्य अर्थः अयं नास्ति यत् केवलं लोपः एव इति. लोपादेः इत्युक्ते लोपः आगमः वा आदेशः न भवति, यथावत् तिष्ठतः वर्णौ इति फलितार्थः अस्ति. इत्युक्ते तत्र सन्धेः निमित्तम् अस्ति. निमित्तम् इत्युक्ते कारणं तु अस्ति. अनादि योगः उभौ, सन्धिः भवितुम् अर्हति खलु? कीदृशी सन्धिः, कीदृशः सन्धिः भगिनि? यणसन्धि भवितुम् अर्हति किन्तु न भवति. तादृशपरिस्थितिः प्रकृतिभावः. प्रकृतिभावः अपि एकविधसन्धिकार्यम् अस्ति. अग्रे गत्वा पश्येम कुत्र कुत्र प्रकृतिभावः भवति इति अग्रे गत्वा विषयः आयास्यति. अस्तु, समीचीनमस्ति. तर्हि केन आगतं नूतनतया?
सन्ध्या.
सन्ध्या भगिनि, स्वागतम्. अस्तु सन्ध्या भगिनी, तर्हि अधुना परिचयत्वेन किञ्चित् जातं. यदा सन्धिः भवति, सप्तमपुटं पश्यतु. यदा सन्धिः भवति तत्र चतुर्विधकार्याणि भवन्ति इति: आदेशः, आगमः, लोपः, प्रकृतिभावः इति. अस्तु, हा इति परिशीलयन्तः स्मः. तत्र तस्मिन्नेव पुटे उपरितनभागे संयुक्ताक्षरम् इति उक्तम् अस्ति. राजी भगिनी, तस्य विषये किञ्चित् वदति वा?
आं भगिनि, दकारः रेपः इति व्यञ्जनवर्णद्वयं स्तः द्वयम् अस्ति. मध्ये किमपि स्वर अत अक्षरः नास्ति. अतः ईद् योग र विल् बिकम् द्र, द्र संयुक्ताक्षरम् इति उच्यते.
द्र इति द्र इति संयुक्ताक्षरम्. हा, द्र इत्यस्मिन् द दकारः अपि च रेपः, तयोः मध्ये सन्निधिः सामीप्यम् अस्ति वा?
आम्, कोऽपि वर्णः मध्ये नास्ति किल.
हा, सामीप्यं तु अस्ति, सन्निधिः अस्ति, परन्तु सन्धिकार्यम् इति न वदामः. किमर्थं
सन्धिकार्यं न वदामः? किमर्थम् इत्युक्ते विकारः न भवति.
हा, इति मुख्यवार्ता अस्ति. केवलं वर्णयोः सन्निधिः एव सन्धिः न. यत्र वर्णानां विकारः परिवर्तनं भवति तत्रैव सन्धिः इति उच्यते. संयुक्ताक्षरस्थले तु सन्निधिः सन् अपि तत्र
सन्धिः न भवति. किमर्थम् इत्युक्ते परिवर्तनं न भवति.
परिवर्तनं न भवति इति. अस्तु, समीचीनम् इति परिचयः जातः सन्धेः. अस्तु, अपि च अभिनवमहोदया, सन्ध्या भगिनी, प्रश्नाः सन्ति चेत् अवश्यं पृच्छन्तु. अद्यैव आगतवन्तौ इति कृत्वा प्रश्नाः स्युः. अस्तु, अस्तु. तर्हि हा, अपि च पञ्चमपुटं पश्यतु. इतोपि एकः मुख्यः विषयः अस्ति तत्र पञ्चमे पुटे. तत्र माहेश्वरसूत्राणि इति अस्ति. अस्तु, तस्य अपि चर्चा जाता. तर्हि माहेश्वरसूत्राणि इत्युक्ते किम् इति कोऽपि पृच्छति चेत्, केवलं वर्णानां भिन्नरीत्या आयोजनम् इति वक्तुं शक्यते. तर्हि तस्मात् पूर्वं व्यञ्जनम् इति शीर्षकम् अस्ति, तत्र प्रदर्शितमस्ति खलु, क ख ग घ ञ इति कवर्गः, चवर्गः, टवर्गः, तवर्गः, पवर्गः इति व्यञ्जनम् इति दर्शितमस्ति. पूर्वस्मिन् पुटे स्वराः प्रदर्शिताः सन्ति क्रमेण अ आ इ ई उ तथा. तर्हि सामान्यवर्णमालायां तु एतादृशक्रमः अस्ति. प्रथमं स्वराः आगच्छन्ति अ आ इ ई क्रमेण, तदनन्तरं वर्गीयव्यञ्जनानि आगच्छन्ति इति अस्ति सामान्यक्रमम्. परन्तु माहेश्वरसूत्राणि इति यद्वदामः, तत्र भिन्नरीत्या आयोजनम् अस्ति वर्णानाम्. अत्र आहत्य चतुर्दश माहेश्वरसूत्राणि सन्ति, पञ्चमे पुटे पश्यतु। तर्हि हा प्रथमसूत्रं किम् अस्ति राजी भगिनि?
ऐ उन्
ऐ उन् हा ऐ उन् इति तु सत्यम् इति सत्यम् इति सत्यं, किन्तु प्रथमसूत्रम् अस्ति किम्? अण् इति, ऐ उन् क्षम्यताम् ऐ उन् इति अस्ति। हा हा संक्षेपे प्रथमसूत्रं कथं वदामः?
अण् इति वदामः।
हा अण् इति वदामः संक्षेपार्थे, अण् इति वदामः चेत् तत्र के के वर्णाः अन्तर्भूताः भवन्ति?
अण् इति प्रत्याहारे आ ई उ वर्णाः अन्तर्भूताः।
हा समीचीनमस्ति। तर्हि माहेश्वरसूत्रेषु प्रत्येकं वाक्यं, चतुर्दशवाक्यानि सन्ति, तत्र प्रत्येकं वाक्यम् एकं सूत्रम् इति उच्यते। अस्तु, तत्र बहूनां सूत्राणाम् अथवा एकस्य सूत्रस्य मेलनेन प्रत्याहारः इति उच्यते, यथा भगिनी अधुना उक्तवती। प्रथमसूत्रं पश्यतु, अ इ ऊण् इति अस्ति, संक्षेपे तं सूत्रम् अण् इति वदामः, तदा अण् इति एकः प्रत्याहारः इति उच्यते। प्रत्याहारः नाम वर्णानां समूहः तावदेव, एकत्रीकृत्य वर्णानाम् एकत्रीकृत्य वर्णान् तत्र एकः समूहः निर्मीयते, सः समूहः प्रत्याहारः, अण् इति एकः प्रत्याहारः। इदानीम् अक् इति प्रत्याहारः, तस्मिन् के के वर्णाः भगिनि?
पञ्चवर्णाः सन्ति।
हा पञ्चवर्णाः सन्ति। तर्हि भगिनी किं करोति अधुना इति चेत्, अक् इति प्रत्याहारे के के वर्णाः इति अहं पृष्टवती, तत्र अक् इति प्रत्याहारं निर्मातुं प्रथमसूत्रं नाम अ इ उण् इति सूत्रम्, अपि च द्वितीयसूत्रं रुल् ऋक् इति सूत्रं, तयोः मेलनेन अक् इति प्रत्याहारः निर्मितः अस्ति। अक् इत्यस्मिन् प्रत्याहारे के के वर्णाः सन्ति इति प्रश्ने कृते तत्र यथा भगिनी उक्तवती अ इ उ रुल् ऋ इति आगच्छति। प्रत्येकस्मिन् वाक्ये अथवा सूत्रे अन्तिमव्यञ्जनं, स्वररहितव्यञ्जनं यदस्ति तस्य लोपः भवति, लोपः एव इत् संज्ञा इति व्याकरणलोके उच्यते। अस्तु, तर्हि अण् इति एकम् उदाहरणं प्रत्याहारस्य, तस्मिन् अ इ उ न अ इ उ इति वर्णाः, नकारः न तिष्ठति। अक् इति एकं एकः प्रत्याहारः, तस्मिन् अ इ उ रुल् ऋ इति वर्णाः तिष्ठति, तद्वदेव प्रत्याहाराः निर्मीयन्ते। तर्हि एतस्य अभ्यासं वयं कृतवन्तः पूर्वतनेषु वर्गेषु, इत्यावत् प्राप्तवन्तः। अधुना प्रथमपुटे नूतनतया कोऽपि अस्ति खलु? सन्ध्या
भगिनी, अहं लक्ष्मीलम्बेन
आगतवती। अस्तु, चिन्ता नास्ति। अस्तु, प्रथमपुटे एका कथा अस्ति। अस्तु, कथां पठित्वा कथायां विद्यमानानि सन्धियुक्तपदानि कानि इति परिशीलयिष्यामः। अभिनवमहोदय आरब्धुमिच्छति वा?
आं भगिनि। नारायणं नमस्कृत्य एतं पाठं सावधानम् उच्चैः पठत्। नारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयम् उदीरयेत् इत्यस्य अर्थम् अपि वदामि भगिनि।
एवं करोतु, अग्रिमवाक्यत्रयं पठतु।
आम्, श्रीमद्भगवद्गीता महाभारते अन्तर्गतः कश्चन भागः, भीष्मपर्वणि एष भागोऽस्ति, एषः भागः अस्ति। भगवन्तं नारायणं मनुष्येषु श्रेष्ठम् अर्जुनं देवीं सरस्वतीं व्यासमहर्षिं च नमस्कृत्य ततः जयः इति ग्रन्थस्य वाचनं करणीयम् इत्येतस्य श्लोकस्य अर्थः।
हा अस्तु महोदय, अर्थः ज्ञातः खलु?
आम्।
किञ्चित् वदति वा स्वस्य वाक्यैः?
एतः श्लोकः महाभारते श्रीमद्भगवद्गीताग्रन्थे कश्चन भागे भागस्य अन्तर्गतः अस्ति। भीष्म भीष्मपर्वणि इति अध्याये अस्ति। एषः भागो अस्ति, भागः एषः भागः अस्ति। एषः भागोऽस्ति, अत्र विसर्गस्य लोपः अस्ति, अतः लोपः भवति।
हा, बहु समीचीनं महोदय। विसर्गस्य लोपः अस्ति इति कृत्वा कीदृशसन्धिः?
विसर्गसन्धिनां न जानामि, विसर्गसन्धि।
हा, वस्तुतः सन्धिः अपि त्रिप्रकारकः, स्वरसन्धिः, व्यञ्जनसन्धिः, विसर्गसन्धिः इति। तर्हि यत्र विसर्गस्य परिवर्तनं, लोपः किमपि भवति चेत् तदा विसर्गसन्धिः इति वदामः। यदा स्वरात् परः स्वरः आगत्य स्वरयोः मध्ये भवति चेत् सन्धिः स्वरसन्धिः। अस्तु, व्यञ्जनात् परः अन्यः कोऽपि वर्णः आगत्य तत्र परिवर्तनं चेत् व्यञ्जनसन्धिः। अस्तु, तर्हि भवता समीचीनतया उक्तम्, एषः भागोऽस्ति, विसर्गलोपः, विसर्गसन्धिः। अस्तु, भागः अस्ति, तत्र किं जातम्?
भागः अस्ति, भागोऽस्ति, अत्रापि विसर्गसन्धि।
हा, समीचीनम्। विसर्गस्य परिवर्तनं जातं चेत् विसर्गसन्धिः इति सम्यक्तया अवगतं भवता। ओकारः आगतः विसर्गस्य, तदनन्तरं किम् अभवत्?
अत्र आदेशः अस्ति वा आगमः अस्ति इति चिन्तयामि।
हा, वस्तुतः अत्र अकारस्य उच्चारणं न भवति, लोपः इव अस्ति,
अतः आगमः अस्ति,
न लोपः इति वक्तुं शक्नुमः।
लोपः,
आगमः इति चेत् सर्वे वर्णाः यथावत् तिष्ठन्ति, नूतनः आगच्छति इति आगमः। तदर्थं मित्रवत् आगमः इति वदामः, यथा विद्याभगिनी उक्तवती। मित्रवत् आगमः इत्युक्ते कोऽपि वर्णः न गच्छति, अस्तु, किन्तु नूतनः कश्चन आगच्छति। आदेशः यत्र भवति तत्र एकस्य वर्णस्य स्थाने अपरः नूतनः, हा, नाम पूर्वतनवर्णस्य स्थाने आगच्छति इति कृत्वा शत्रुवत् आदेशः। हा, अस्तु, तर्हि अत्र भागो योगः अस्ति, तत्र कीदृशसन्धिः? प्रथमं तु विसर्गसन्धिः, भागः भागो अभवत्, तदनन्तरं कीदृशसन्धिः?
न जानामि, भागो अस्ति।
हा, स्वरः अस्ति खलु, ओकारः।
आम्, स्वरः अस्ति।
हा, स्वरात् परः स्वरः आगतः, तत्र कीदृशसन्धिः तर्हि? स्वरसन्धि। हा, स्वरसन्धि, अस्तु, अग्रे।
भगिनी, एकः सन्देहः, अवग्रहचिह्नं न अस्ति चेत् कथं जानीमः स्वरः अस्ति इति? यदि तत्र अवग्रहचिह्नं न अस्ति इति मन्ये, वयं कथं जानीमः अकारः अत्र अस्ति इति?
अकारः एव किमर्थं तत्र आगच्छेत् इति खलु। तत्र एकः पूर्वरूपसन्धिः इति सन्धिः अस्ति खलु भगिनि, तत्र नियमः एव तादृशः। एकारः ओकारः ताभ्यां वर्णाभ्यां परतः अकारः चेत् तत्र इति।
न, मम प्रश्नम्, अकारस्य स्थाने अवग्रहचिह्नम् अस्ति किल, अवग्रहचिह्नं नास्ति चेत् वयं कथं जानीमः अत्र अकारः अस्ति इति?
नाम तत्र अवग्रहचिह्नेन चिह्नेन एव स्पष्टीक्रियते यत् अत्र पूर्वरूपसन्धिः जातः इत्युक्ते नाम तत्र नियमः एव तादृशः अकारः एव अस्ति परः अवग्रहचिह्नं अस्ति चेत् तत्र एकारः ओकारः तस्मात् परः अकारः स्यात् तदा एव तयोः स्थाने एकारः वा ओकारः तिष्ठति खलु इति नियमः पूर्वरूपसन्धेः इति एव अस्ति तर्हि अकारात् विहाय अन्यत् किमपि न भवितुम् अर्हति इति चिन्तयामि अस्तु तर्हि
प्रश्नः अस्ति के अकार अवग्रहचिह्नस्य विना अवग्रहचिह्नं विनापि लेखितुं शक्नोति केचन केषुचन पुस्तकेषु दृष्टवान् तादृशम्
तस्मिन् विषये न जानामि परन्तु अवग्रहचिह्नः चिह्नम् अस्ति इत्यनेन एका सूचना प्राप्यते सूचना का इति चेत् अस्तु अत्र अकारः आसीत् तस्मात् पूर्वम् एवा ओ वा इति आसीत् सः पूर्ववर्णः तिष्ठति इति एका सूचना प्राप्यते अपि च अवग्रहचिह्नस्य स्थापनेन किं भवति इति चेत् अकारस्य उच्चारणं न भवति इति सूचना तर्हि अवग्रहचिह्नेन विना तादृशी सूचना कथं वा लभ्येत इति भागोऽस्ति इति वक्तुं शक्नुमः भवान् वदति यत् अवग्रहचिह्नं नास्ति साक्षात् ओकारात् परः स अथवा तादृशं हा प्रायः विरलतया मया
भाषायाः परिचयस्य एव भविष्यति प्रायः यादृशं वयम् आङ्ग्लभाषायां शुद्धं वा अशुद्धं वा वयं जानीमः अभ्यासेनैव
अभ्यासेनैव परन्तु अवग्रहचिह्नं तु आवश्यकमेव सर् अत्रापि सर्वेपि कोऽपि तत्र आवश्यकमेव इति मन्ये अस्तु इतः अस्तु इतः अग्रे सरेम अस्तु कुत्र आसीत् अभिनव महोदय
भगवन्तं नारायणं मनुष्येषु श्रेष्ठम् अर्जुनं देवीं सरस्वतीं व्यासमहर्षिं च एतानि महापुरुषाणि एते महापुरुषाः नमस्कारं करोमि
तान् नमस्करोमि
तत्पश्चात् जयः अथवा महाभारतः इति ग्रन्थस्य वाचनं करणीयम् अस्ति
हा इति समीचीनम् इति अर्थः श्लोकस्य तत्र इत्येतस्य इति स्थूलाक्षरैः मुद्रितं पदमस्ति तत्र किम् अभवत्
एतस्य अत्र आदेशः भवति
हा बहु समीचीनं महोदय कस्य आदेशः कस्य स्थाने
ईवर्णस्य स्थाने यवर्णः अस्ति आगच्छति
हा समीचीनम् इकारस्य स्थाने य इति व्यञ्जनम् आगच्छति अतः आदेशः बहु सम्यक् अस्ति अस्तु तर्हि उपरितनश्लोके अपि केचन शब्दाः तथा सन्ति पश्यति वा परिशीलयति वा
चैव च एव अत्र स्वरसन्धिः अस्ति
कथं स्वरसन्धिः च योगः एव अस्तु
च योगः एव ए स्थाने ऐ आगच्छति
हा समीचीनम् अकारः अस्ति एकारः अस्ति अस्तु तयोः स्थाने ऐ इति आगच्छति तर्हि स्वरात् परः अथवा स्वरस्य अनन्तरं स्वरः तयोः परिवर्तनम् इति स्वरसन्धिः अस्तु इतोपि एकं पदमस्ति सन्धियुक्तपदं तस्मिन् श्लोके, तत् किम्?
नरोत्तमं, नरः उत्तमं, नर उत्तमं,
नर योगः उत्तमं,
नर योगः उत्तमं,
हा,
आ योगा उ आने ओकारः आगच्छति, स्वर अत्रापि स्वरसन्धिः अस्ति,
हा स्वरसन्धिः, बहु समीचीनम्। इतोपि एकं पदमस्ति महोदय, पश्यति वा?
जयम् उदीर्येत्।
अस्तु, तत्र किम् अभवत्?
तत्र मकारः अस्ति, योगः उकारः अस्ति, हलन्तस्य लोपः अस्ति।
इदानीं चिन्तयतु, मकारः जयं, योगः उदीरयेत्, अस्तु, जयम् इत्यस्मिन् हलन्त, यथा भवान् उक्तवान् तत् सत्यमेव, इत्युक्ते व्यञ्जनं, व्यञ्जनात् परः कः अस्ति?
स्वरः अस्ति,
स्वरः अस्ति इति सत्यं, परन्तु अत्र वर्णयोः नाम मकारस्य वा अथवा उकारस्य वा परिवर्तनं जातं वा? न खलु, केवलं वर्णमेलनम्, हा इति वार्ता। तर्हि विकारः अथवा परिवर्तनं न जातं चेत् तत्र सन्धिः नास्ति, वर्णमेलनम् एव।
प्रकृतिभावः भवति वा?
न, प्रकृतिभावः तदा भवति यदा सन्धेः निमित्तम् अस्ति, इत्युक्ते सन्धिः भवितुम् अर्हति, यथा नर योग उत्तमं, तत्र सन्धिः शक्यः खलु। परन्तु जयं योगः उदीरयेत् इत्यस्मिन् कोऽपि सन्धिः एव न भवति, तर्हि वर्णमेलनम्। इदानीं ततो
ततो जयम् उदीरयेत्, ततः जयम् उदीरयेत्,
कीदृशसन्धिः?
विसर्गस्य पश्चात् व्यञ्जनशब्दः अस्ति, अतः विसर्गस्य स्थाने ओकारः आगच्छति, अतः
विसर्गसन्धिः,
विसर्गसन्धिः अस्ति,
हा विसर्गसन्धिः। तर्हि विसर्गस्य कदा लोपः, कदा परिवर्तनम् इति सर्वं विसर्गसन्धिपाठे अवश्यं परिशीलयिष्यामः, किन्तु अधुना भवता यदा यदुक्तं तत् सत्यमेव, विसर्गस्य कश्चन किञ्चन परिवर्तनं जातम् इति कृत्वा विसर्गसन्धिः। अस्तु, समीचीनमस्ति
भगिनि।
हा,
अत्र नमस्कृत्य इति अस्ति, तत्र सन्धिः अस्ति वा? नमः कृत्य,
हा हा, समीचीनं भगिनि, तर्हि भवती एव वदतु।
यदि सत्यमस्ति चेत् नमः कृत्यम् इति अस्ति, तत्र विसर्गस्य स्थाने सकारः आगच्छति, नमस्कृत् इति,
हा सम्यक्, इति विसर्गसन्धिः एव। अस्तु, इति सन्धेः अभिज्ञानं भवतु। अस्तु, इतः अग्रे सर्, हा
भगिनि, नारायणं देवीं सरस्वतीं अनुस्वरः अस्ति, ते तत् सन्धिभा न वक्तुं शक्नुमः,
मोनुस्वारः इत्यनेन खलु, हा, तदनन्तरं वा पदान्तस्य इति अस्ति इति चिन्तयामि, वैकल्पिकं प्रायः।
एतानि एताः शब्दाः अनुस्वरसन्धि वदामः वा न वदामः? नारायणं, नरं, देवीं, सरस्वतीं, व्यासं,
तत्र अनुस्वरसन्धिः जातः इति प्रायः, आम् जातः इति वक्तुं शक्नुमः, देवीम् इति मकारस्य अनुस्वारत्वेन परिवर्तनम्
अभ्यासे अस्ति न, तदेव अभ्यासे अपि अस्ति अनुस्वार अस्तु
आमामां हा समीचीनं भगिनि सम्यक् अनुस्वारः हा तर्हि भगिनी तर्हि यत्र कुत्रापि अनुस्वारः दृश्यते तत्रापि सन्धिः जातः देवीमिति मकारः तस्य अनुस्वारत्वेन परिवर्तनम् इति धन्यवादः भगिनि तथा तदपि अस्ति अस्तु अग्रे जगन्नाथमहोदय तत्तु अभवत् अनन्तरम् एष भारते इति
एष भारते एषः भारते प्राचीनकालादागतः प्राचीनकालात् आगतः सम्प्रदायः महाभारतस्यैव महाभारतस्य एव पूर्वं जयः इति नाम आसीत् गच्छताकालेन बहूनां कथोपकथादीनां योजनेन स एव सः एव महद्रूपं महत् रूपं प्राप्य महाभारतमिति महाभारतम् इति विख्यातम् अभवत् एष भारत भारते
महोदय एवं कुर्मः प्रारम्भे सारांशत्वेन सारांशत्वेन वाक्यस्य अर्थं वदतु यद् भवता पठितं तदनन्तरं सन्धिविच्छेदं करोतु
अस्तु
तेन सम्भाषण अभ्यासः अपि भवति
प्राचीनकालात् एव एतस्य नाम महाभारतम् इति एष किं सम्प्रदायः इति भारते एष भारते ओ जयम् ओके तादृशं ये मङ्गलश्लोकोच्चारणम् एतत् भारते महाभारत अध्ययनस्य वा पठनस्य प्रारम्भे श्लोकवदनं प्राचीनकालात् अस्मा भारतदेशे अथवा आर्य जनानां सम्प्रदायः भवति अथवा तादृशमेव व्यवहारम् इति व्यवहारः इति वक्तुं शक्यते प्रथमतया यदा गणेशेण लिखितम् अस्ति तस्मिन् समये जयः इति नाम प्रथमे वेदव्यासेन दत्तनाम किन्तु तस्माद् वैशम्पायनऋषिः सर्पयज्ञे सम्पूर्णकथा उक्तवान् तां कथा सौत्येन तत्र श्रुत्वा सौत्या तत्र श्रुत्वा नैमिषारण्ये ऋषि जनान् उक्त्वा अनेक अन्यकथा अपि प्रश्नस्य उत्तर मार्गेण नूतनकथा अपि अनेक अभवत् तस्मात् महाभारतम् इति तस्य नाम विख्यात प्रसिद्ध जातः
समीचीनं कथोपकथादीनां योजनेन इत्येव महोदय अधुना किञ्चित् विस्तरेण उक्तवान् बहूनां बह्वीनां वस्तुतः कथा इति स्त्रीलिङ्गपदं बह्वी बहु इत्यस्य स्त्रीलिङ्गरूपम् अस्ति बह्वी तर्हि नदीवत् अस्ति बह्वीनां कथानां योजनेन महाभारतस्य महद्रूपं जातं तत् प्राप्य महाभारतम् इति विख्यातम् अभवत् इति अस्ति अस्तु महोदय समीचीनं तर्हि इदानीं सन्धियुक्तपदानि कानि कोऽपि प्रश्नः महोदय कस्यचित् प्रश्नः आसीत्
भगिनि. पूर्वतनवाक्ये ग्रन्थस्य वाचनं करणीयम् अस्ति. ग्रन्थस्य वाचनं तत्तु लुडन्त् ल्यूट् प्रयोगं. वाचनं शब्दस्य लट्लकार क्रियापदं किं वक्ति भवति वा?
सत्यं हा, वच् इति धातुः, तत्र वक्ति इति भवति.
अनन्तरम् अत्र बहूनां कथा बहूनां कथोपकथादीनाम् इति शब्दमस्ति. यथा भवती उक्तवती कथा उपकथा आदीनां समस्तपदं भवति. अनन्तरं किमर्थम् अत्र बहूनां पुंलिङ्गपदम् अस्ति?
हा, समीचीनः प्रश्नः. यतोहि अहं तु उक्तवती कथा खलु, कथा इति स्त्रीलिङ्गपदं, तदर्थं बह्वी इति अहम् उक्तवती. परन्तु अत्र विशेषणविशेषभावः सर्वदा भवति एव खलु. बहूनाम् इति विशेषणं, कथोपकथादीनाम् इति विशेष्यं. तत् श्लोकः अस्ति खलु, यल्लिङ्गं यद्वचनं याच विभक्तिविशेष्यस्य तल्लिङ्गं, क्षम्यतां, विशेषणस्य तल्लिङ्गं तद्वचनम् इति विशेषणविशेष्यभावे तथा अस्ति. तर्हि अधुना अस्माभिः किं परिशीलनीयम् इत्युक्ते, विभक्ति समानमस्ति वा बहूनां षष्टि बहुवचनं? तर्हि विभक्ति वचनं समीचीनम् अस्ति. तर्हि भवत्याः प्रश्नः किमर्थं बहूनाम् इति अस्ति इति इत्युक्ते, हा, पुल्लिङ्गपदमस्ति, पुल्लिङ्गषष्टि बहुवचनं. अपि च तस्मात् परः यद् यः शब्दः अस्ति कथोपकथादी इति, सः मुनिः पदवत् कथोपकथादिः इति, तर्हि पुल्लिङ्गपदम्. केवलं कथा इति अभविष्यत् चेत् तत्र भिन्ना वार्ता, अत्र तु कथोपकथादि इति पुल्लिङ्गपदमेव, तदर्थं बहूनां.
धन्यवादः भगिनि.
अस्तु, समीचीनं. तर्हि महोदय,
एष भारते, अत्र विसर्गलोपसन्धि भवति, विसर्गस्य लोपः. एषः भारते सन्धि विना, एष भारते सन्धि उक्त्वा प्राचीनकालादागतः, अत्र प्राचीनकालात् इति कालात् स्वर व्यञ्जन पूर्वरूपस्य व्यञ्जनान्त अस्ति आगतः इति, परशब्दस्य स्वरः तत्र व्यञ्जनस्य विसर्ग भवति, ऐ मीन् व्यञ्जनस्य परिवर्तनं भवति. कर्कषव्यञ्जनस्य मृदुव्यञ्जनं भवति तत्र. एतद् स्वर अपि अस्ति, व्यञ्जनम् अपि अस्ति, कीदृशं
किन्तु कस्य परिवर्तनम्?
आदेश सन्धिः,
आदेशसन्धिः इति न वदामः. आदेशः इति एकविधसन्धिकार्यं. सन्धिः तु स्वरसन्धिः भवितुमर्हति, व्यञ्जनसन्धिः, विसर्गसन्धिः. अत्र परिवर्तनं कस्य जातं, व्यञ्जनस्य वा स्वरस्य, कस्य?
व्यञ्जनस्य.
हा, अतः व्यञ्जनसन्धिः एव.
धन्यवादः. प्राचीनकालात् आगतः सम्प्रदायः महाभारतस्यैव, महाभारतस्य एव अत्र वृद्धिसन्धि एव, ओके, स्वरसन्धि भवति. पूर्वं जयः इति नाम आसीत्, गच्छतकालेन बहूनां कथोपकथादीनां योजनेन स एव, सः एव, अत्रापि विसर्गलोपसन्धि. महद्रूप, माद्रूपं तत्रापि व्यञ्जनसन्धि प्राप्य महाभारतम् इति अत्र कोऽपि सन्धि न भवति, वर्णस्य मेलनमेव विख्यातम् अभवत्।
हा समीचीनम्, अत्र कोऽपि वर्णविकारः न जातः अतः सन्धिः नास्ति। अपि च महोदय कथोपकथा इत्यत्र एका सन्धिः अस्ति, प्रेषयति वा?
कथा योग उपकथा दीना कथा तदपि स्वरसन्धि एव।
स्वरसन्धिः एव, यथा नरोत्तमम् अकारोत्तरवर्ती उकारः, अत्रापि आकारः तदुत्तरवर्ती उकारः, तयोः ओकारः इति, तर्हि स्वरसन्धिः। अस्तु समीचीनमस्ति।
प्राचीनकालात् आगतः व्यञ्जनसन्धि किमर्थम् आकारः स्वरः अस्ति चेत्?
आकारः स्वरः इति सत्यं, किन्तु आकारात् पूर्वं किमस्ति भगिनि?
व्यञ्जनतकार, परन्तु अहं सो द्वयोः व्यञ्जनं भवितुं न आवश्यकं, तर्हि
न आवश्यकम् इति सत्यमेव। आकारः तस्मात् पूर्वं व्यञ्जनमेकमस्ति, अपि च तकारस्य एव परिवर्तनं जातं खलु, तकारः दकारः अभवत् खलु भगिनि?
आम्।
इति कृत्वा व्यञ्जनसन्धिः, एकम् अपि व्यञ्जनमस्ति चेत् पर्याप्तं, व्यञ्जनसन्धिः इति उच्यते। अग्रे एतदुता उदाहरणं पश्यतु, महद्रूपं, तत्र व्यञ्जनद्वयमस्ति यथा भवती उक्तवती खलु, पश्यति वा?
न, कुत्र अस्ति
महद्रूपम् इति? इदानीं जगन्नाथमहोदय पठितवान् कथा कथोपकथादीनां योजनेन स एव महद्रूपम् अस्ति।
ओ आम्।
हा तत्र किम् अभवत्?
द्वयोः व्यञ्जनं सन्ति।
हा द्वे व्यञ्जने स्तः खलु?
आम्।
द्वे व्यञ्जने स्तः, तकारः तदुत्तरवर्ती रेपः, तर्हि कस्य परिवर्तनं जातं भगिनि? तकारस्य परिवर्तनं, हा परिवर्तनं भूत्वा किम् अभवत् तत्र, किम् आगच्छत्?
तकारः दकारः।
हा तकारस्य दकारत्वेन परिवर्तनम्, अथवा तकारस्य स्थाने दकारः इति वदामः, अतः व्यञ्जनसन्धिः। अवगतं,
धन्यवादः।
अस्तु भगिनि, भवती एव अग्रिमपरिच्छेदं पठतु पूर्णतया।
महाभारते अष्टादश इत्यस्याः इति अस्याः संख्यायाः अतीव प्राशस्त्यम् अस्ति। कटपयादिसंख्या क्रमेण जय शब्दः अष्टादशसंख्यां निर्दिशति। अग्रे गच्छामि?
गच्छतु भगिनि।
महाभारतग्रन्थे अष्टादश पर्वाणि सन्ति। महाभारतयुद्धे अष्टादश अक्षौहिण्यः युद्धम् अकुर्वन् युद्धं च प्रवृत्तम् अष्टादशदिनानि यावत् गीतायां अध्यायानां संख्या अपि अष्टादश तत्रत्याः अष्टादश अध्यायाः अपि अस्मान् जीवनमार्गं बोधयन्ति गीतायाः अध्ययनम् अस्माकं ज्ञानदायकं भवतु ज्ञानदायकं भवतु
तर्हि अर्थः अवगतः वा सारांशत्वेन
अर्धः अवगच्छामि
हा किम् अवगतम्
अष्टादश भागाः सन्ति
समीचीनं महाभारते अष्टादशपर्वाणि अथवा भागाः समीचीनं भगिनि अपि च
भगवद्गीताम् अपि वा अष्टादश चाप्टर् किम्
अध्यायः इति चाप्टर् अध्यायाः चाप्टर्स्
अध्यायाः सन्ति अपि युद्धम् अपि अष्टादशदिनाः
हा
दिनानि
तर्हि महाभारते सर्वत्र अष्टादश इत्युक्ते
संख्या 18 आम्
हा तस्य प्राशस्त्यम् अस्ति प्राशस्त्यम् इत्युक्ते महत्त्वम् अस्तु तर्हि अष्टादश इति सङ्ख्यायाः महत्त्वम् अस्ति कटपयादिसङ्ख्याक्रमेण जयशब्दः अष्टादशसङ्ख्यां निर्दिशति पुस्तकस्य अन्ते
भगिनि महत्त्वं वा प्रसिद्धि वा
प्राशस्त्यं हा प्रायः प्रसिद्धिः एव स्यात् बीङ्ग् सेलेब्रेटेड् इत्युक्ते हा ख्यातिः इति वक्तुं शक्नुमः सत्यम् इति हा इति अष्टादशसङ्ख्यायाः प्राशस्त्यम् अस्ति पुस्तकस्य अन्ते पेज् 299 इति अस्ति तत्र अनन्तरं पठन्तु कटपयादिसङ्ख्या इति किमपि अस्ति तत्र कटपयादिसङ्ख्याक्रमेण नाम प्रत्येकं व्यञ्जनस्य एका सङ्ख्या भवति अस्तु तत्र कटपयादिसङ्ख्याक्रमेण ज इत्यस्य अष्ट इति सङ्ख्या अपि च य इत्यस्य एका इति सङ्ख्या इति कृत्वा तत्रापि अष्टादश इति सङ्ख्या आगच्छति जयशब्दस्य अपि च महाभारते अष्टादश अक्षौहिण्यः अक्षौहिणी सेना इति एकः सेनाविशेषः तर्हि एतत् सर्वं दृष्ट्वा महाभारते अष्टादश इत्यस्याः सङ्ख्यायाः प्राशस्त्यम् अस्ति इति उक्तं तावदेव सारांशः अस्तु सन्ध्या भगिनी अधुना स्थूलाक्षरैः मुद्रितं पदं किमस्ति अत्र अस्मिन् परिच्छेदे
इत्यस्याः इति अस्याः अत्र एकनिमिष
इति इत्यस्य अन्तिमवर्णः कः
आदेशः
हा हा बहु समीचीनं भगिनि तर्हि अहं सोपानेन गच्छामि भवती उत्तरमेव उक्तवती सम्यक् एव इति इकारः तस्मात् परः इकारात् परः कः अस्ति अत्र
परः इत्युक्ते किम्
अनन्तरम्
ओ क्षम्यताम्
अकारः हा इति तस्मात् पर इकारः तस्मात् परः अकारः तयोः सन्धिः तयोः मध्ये सन्धिः भवति तर्हि यकारः कुत्र आगतः भगिनि कस्य स्थाने
इकारस्थाने
हा समीचीनम् इकारस्य स्थाने यकारादेशः इति कृत्वा स्वरसन्धिः एव अस्तु अग्रे भगिनि स्थूलाक्षरे यदस्ति
अग्रे युद्धम् अकुर्वन् युद्धम् अकुर्वन् अत्र व्यञ्जन सन्ति वा
व्यञ्जनात् परः स्वरः अस्ति इति सत्यं किन्तु व्यञ्जनस्य परिवर्तनं जातं किम्
अकारः
हा अकारेण सह मेलनं जातम् इति सत्यं परिवर्तनम् इत्युक्ते यथा पूर्वं दृष्टवन्तः तकारस्य स्थाने दकारः तथा अभवत् वा
न
मकारः तथा एव यथावत् तिष्ठति खलु इति कृत्वा तत्र सन्धिः नास्ति केवलं वर्णमेलनं तावदेव तत्र हा श्लोके अभिनवमहोदय पठितवान् खलु जयमुदीरयेत् इति पश्यति वा श्लोके अन्तिमपदम् तत्रापि वर्णमेलनम् एव जयं योगः उदीरयेत् यतोहि कस्यचिदपि वर्णस्य परिवर्तनं न जातम् इति कृत्वा अवगतम् हा अग्रिमपदं स्थूलाक्षरैः मुद्रितम्
अष्टादशाध्यायाः अत्र न अन्तिम आकारः अस्ति परः आकारः अपि
तर्हि तयोः स्थाने किम् अभवत्
आकारः
हा आकारः आगच्छति तर्हि कीदृशसन्धिः भगिनि
स्वरसन्धिः
हा बहु समीचीनम् इत्येव अस्ति अत्र अकारात् परः आकारः तयोः स्थाने आकारः इति आगतः सम्यक् अस्ति अस्तु इति वयं कथायाः विश्लेषणं समापितवन्तः अग्रे अभ्यासः इति अस्ति तद् वयं कृतवन्तः एव अधुना गृहे इतोपि एकवारं परिशीलयन्तु अधुना तत्र 1.6 इति अस्ति श्रीमद्भगवद्गीतायाः निम्नलिखितेषु श्लोकेषु स्थूलाक्षरपदानि सावधानं पठत इति 1.6 तत् परिशीलयामः लक्ष्मी भगिनी पठति वा
भगिनि अहं गच्छामि धन्यवादः
अस्तु अस्तु सन्ध्या गन्तव्यमासीत् अस्तु लक्ष्मी भगिनी
पश्यैतां पाण्डुपुत्राणाम् आचार्य महतीं चमोम् व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता अत्र स्थूलाक्षरैः पश्यैताम् अस्ति पाण्डुपुत्राणाम् आचार्य अपि अस्ति पश्यैतां तत्र पश्य योगः एतां पश्यैतां भवति तत्तु वृद्धिसन्धिः स्वरसन्धिः अनन्तरं पाण्डुपुत्राणां योगः आचार्य तत्तु तदपि स्वरसन्धिः एव किमर्थं चेत् तत्र पाण्डुपुत्राणां
पाण्डुपुत्राणां योगः आचार्य तर्हि
तत्तु केवलं वर्णमेलनमेव किमर्थं चेत् प्रथमपदस्य अन्तिमवर्णः मकारः अनन्तरं मकार योगः अकारः तत्तु केवलं वर्णमेलनमेव सन्धिः नास्ति
समीचीनम् अपि च इति सन्धिद्वयम् अपि च यथा सरला भगिनी सूचितवती यत्र कुत्रापि अनुस्वारः इति अस्ति महतीं व्यूढाम् इत्यादिकं तत्र वस्तुतः मकारस्य अनुस्वारत्वेन परिवर्तनं जातं महतीम् इत्यस्य अन्ते मकारः आसीत् तदनुस्वारः अभवत् इति अस्ति. अस्तु भगिनि, अग्रे.
अनन्तरं चमूम् अपि अस्ति. चमूं तत्र किं भवति?
तत्र किमपि नास्ति. तत्तु वाक्यस्य अन्ते तथा यथावत् तिष्ठति. अस्तु, अग्रिमश्लोकः.
अत्र पश्यैताम् अनन्तरं महतीम् अनन्तरं वियोढां तत्र त्रीण्यपि अनुस्वारसन्धेः वा?
सत्यम्.
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितं पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्. अत्र तदस्माकम् अत्र तत् योगः अस्माकं तदस्माकं भवति. तत्तु व्यञ्जनसन्धिः. जलाम्बिषन्धिः वा?
अग्रे पश्येम. व्यञ्जनसन्धिः हा भवती सम्यक् एव उक्तवती, किन्तु अग्रे पश्ये परिशीलयिष्यामः. अधुना सरलरीत्या व्यञ्जनसन्धिः.
व्यञ्जनसन्धिः
तकारस्य दकारत्वेन परिवर्तनम्. अस्तु, अग्रे.
भीष्माभिरक्षितं तत्र भीष्म योगः अभिरक्षितं तत्र अकार पुनः पुनः अकार योगः अकारः अकारोत्तरवर्ती अपि अकारः एव. तदर्थं तत्तु तदपि स्वरसन्धिः. भीष्माभिरक्षितं
सम्यक्.
अनन्तरं त्रिदमेतेषां तत्र तु योगः इदं योगः एतेषाम् इति अस्ति. प्रथमतया तु योगः इदं त्रिदम् इति भवति. तत्र उकार इकारयोः मेलनेन वकारः आदेशः भवति.
कस्य स्थाने?
उकारस्य स्थाने वकारादेशः भवति.
समीचीनम्.
यण्सन्धिः
वस्तुतः स्वरसन्धिः एव. स्वरसन्धेः अपि प्रकाराः सन्ति. तत्र यण्सन्धिः. समीचीनम्. अग्रे.
इदं योगः एतेषां वेदमेतेषां तत्र सन्धिः नास्ति, केवलं वर्णमेलनं.
समीचीनम्.
अनन्तरं भीमाभिरक्षितं तदपि यथा भीष्माभिरक्षितं तत्रापि अच्सन्धिः अकारद्वयं अकारः योगः भीमयोगः अभिरक्षितं भीमाभिरक्षितं तत्तु अच्सन्धिः अथवा स्वरसन्धिः.
हा, स्वरसन्धिः इति अस्ति. समीचीनम्.
अनन्तरं यथा भवती उक्तवती अत्र अपर्याप्तम् अनन्तरं बलं पर्याप्तं तत्रापि अनुस्वारसन्धिः.
समीचीनं. सत्यं सत्यं.
मोनुस्वारः.
सूत्राणि हा समीचीनं. अग्रे परिशीलयिष्यामः. अस्तु, सरला भगिनी वक्तुम् इच्छति वा अथवा केवलं श्रवणम् इति?
भगिनी वदामि.
हा अस्तु, तर्हि तृतीयं चतुर्थं भवती करोतु.
अयनेषु च सर्वेषु यथा भागमवस्थिताः भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि. यथा भागम् अवस्थिता अत्र वर्णमेलनमस्ति. तदनन्तरं भीष्म एव वर्णमेलनं.
भीष्मं योगः एव वर्णमेलनं. हा समीचीनं. तदनन्तरम्
एव योग अभिरक्षन्तु अत्र अकारस्य परे अकारः अस्ति पूर्वपरयो अकारस्थाने आकार आगच्छति स्वरसन्धि दीर्घसवर्णदीर्घसन्धि अस्ति. भीष्म एव अभि भीष्म एव अभिरक्षन्तु
समीचीनं. सर्व एव हि
यथा भवती उक्तवती पूर्वं मूलवर्गे एतत् यान्तवान्तसन्धिः अस्ति विकल्पेन यकारस्य लोपः अस्ति सर्व एव सर्वैः एतत् शब्दम् अस्ति.
तर्हि आरम्भे सर्वे योग एव इति आसीत्. अस्तु, स्वरात् परः स्वरः, तर्हि कीदृशसन्धिः भगिनि?
स्वरात् परस्वरसन्धिः.
हा, स्वरसन्धिः एव. तत्र सर्वाय इति सर्वाय एव इति यकारः आगच्छति, तस्य लोपः अपि भवति इति अनन्तरं तादृशकार्यमस्ति इति सत्यम्. अस्तु, अग्रे
ततः शङ्खाश्च भेदश्च परमानकगोमुखाः सहसैवाभ्यहन्यन्तः सशब्दोस्तुमलो भवत्. ततः शङ्खाः विसर्ग, तस्य अनन्तरं चकार आगच्छति, सर्गस्य लोप भवति, चकारव्यञ्जनम् आगच्छति. अत्र विसर्गसन्धि अपि व्यञ्जनसन्धि अस्ति.
सत्यं, शङ्खाः योगः च, तत्र विसर्गसन्धेः प्रसक्तिः अस्ति, तद्भूत्वा सकारः आगच्छति, पुनः सकारोत्तरवर्तिचकारः इति कृत्वा व्यञ्जनसन्धि. अस्तु, एतत् सर्वं परिशीलयिष्यामः, किन्तु समीचीनं भगिनि. अग्रे
भैर्यस्य अपि तद् तथैव भैर्यः विसर्गस्य लोप, अनन्तरं चकार उत्तर पर अस्ति, तस्य कारेण विसर्गस्य स्थाने शकार आगच्छति, विसर्ग व्यञ्जनसन्धि.
हा, वस्तुतः विसर्गस्य स्थाने लोपः न, सकारः सकारस्य स्थाने शकारः इति विसर्गसन्धिः, तदनन्तरं व्यञ्जनसन्धिः. वयं न पठितवन्तः एतावत् पर्यन्तम्, एवमेव वदामि, चिन्ता मास्तु. तर्हि
एव अत्र स्वरसन्धिः अस्ति, अकार एकार तस्य स्थाने ऐकार आगच्छति, अत्र स्वरसन्धिः भवति. पुनः स्वरसन्धिः अस्ति, अकार अकारस्थाने आ समानधी च भवति, आ अभ्यन्त अत्र यकार आगच्छति, आकार एव योग अभि तस्य स्थाने सहसा एव अभिहन्त्यम् अभिहन्त्यम् अत्र यकार च आदेश भवति.
तर्हि स्वरसन्धिः भगिनी किञ्चित् न श्रूयते, सरला भगिनी भवती यद् वदति. डिस्टर्बेन्स्.
स्वरसन्धिः भवति तत्र, तदनन्तरं शब्दः तुम्लो भवत्, शब्दः तत्र विसर्गस्य लोप भवति प्रथमं, तदनन्तरम्
एकनिमिष विसर्गस्य लोपः न, सकारः भवति. अस्तु, इदानीं मास्तु, केवलं विसर्गसन्धिः इति वदतु, तर्हि पर्याप्तं.
विसर्गसन्धिः भवति, सकारः आगच्छति, तुम्लो अभवत्, अत्र विसर्ग सन्धिः अस्ति, पुनः अभवत् परम् अस्ति, तस्य स्थाने अवग्रहः अस्ति.
हा हा, इत्युक्ते विसर्गः ओकारः स्वरात् परः स्वरः इति परिस्थितिः आगच्छति, तर्हि स्वरसन्धिः एव. अस्तु, इति अभ्यासः यद्वयं वयं कृतवन्तः अधुना, तद् अग्रे एव अस्ति, तृतीयपुटे च चतुर्थे पुटे, पुनः परिशीलयन्तु गृहे. अस्तु, तर्हि अधुना सप्तमपुटं अष्टमपुटं पश्यन्तु सर्वे कृपया. अष्टमपुटे परिशीलयिष्यामः. प्रथमाभ्यासं. विद्या भगिनी अस्ति वा?
आं भगिनि. अधोनिर्दिष्टेषु स्थानेषु आदेशः, आगमः, लोपः, प्रकृतिभावः इत्येषु अन्यतमं सन्धिकार्यं भवति. तत् किम् इति पुरतः रिक्ते स्थाने यतोदाहरणं लिखत. उदाहरणम् आश्चर्यवत् च, आश्चर्यव योगः त योगः च, आश्चर्यव योगः च योगः च, आश्चर्यवच्च. अत्र तकारस्य स्थाने चकारः आदेशः भवति.
हा, समीचीनं. तर्हि एवं करोतु, एतद् वयम् एकवारं द्विवारं कृतवन्तः स्मः खलु, तदर्थम् आश्चर्यवत् योगः च, कस्य स्थाने कः आगच्छति इति वदतु, पर्याप्तम्. अपि च आदेशः वा इति वदतु.
अत्र तकारस्य स्थाने आश्चर्यवत् योगः च इति अस्ति. तत्र तकारस्य स्थाने चकारः आदेशः, अतः आश्चर्यवच्च इति भवति. अनन्तरं तु इदं, तु योगः इदम्. अत्र उकारस्य स्थाने वकारः आगच्छति, त्विदम् इति भवति आदेशः.
अग्रे
प्रहसन् योगः इव.
एकनिमिषः, अभिनव महोदय प्रश्नः अस्ति वा?
न न, अहं करपत्रम् उद्घाटनसमये मया अत्र महोदयस्य, स्वरूपमहोदयस्य ध्वनि.
अस्तु अस्तु, हा अस्तु. अग्रे भगिनि.
प्रहसन् योगः इव इति अस्ति. तत्र प्रहसन् इति अन्ते नकारः अस्ति, अनन्तरम् इव इकारः. अत्र नूतननकारः आगच्छति इकारस्य पूर्वम्. आगमः प्रहसन्निव इति.
समीचीनम्. अग्रिमं.
नायकाः योगः मम इति अस्ति. अत्र विसर्गः लोपः भवति, नायका मम इति भवति.
हा, इत्युक्त्वा लोपः इति कार्यमस्ति.
भ्रमती योगः इव इति अस्ति. अत्र भ्रमति अन्ते ईकारः अस्ति, अनन्तरम् इव इति पदे ईकारः अस्ति. द्वयोः स्थाने ई आदेशः भवति, भ्रमतीव इति भवति.
अतः आदेशः,
आदेशः.
अस्तु, एकनिमिषः. अग्रे अन्य कोऽपि? राजी भगिनी अस्ति वा? न स्यात्. अभिनव महोदय.
आं भगिनि. स्यात् निश्चितम्. स्या योगत् योग न योग इच्छितम्. स्या योग न नकार योग नकार योग इच्छितम्. स्यान्निश्चितम्. अत्र आगमः अस्ति.
समीचीनं. किमर्थम् आगमः? न न न न, एकनिमिषः एकनिमिषः. अत्र किम् अभवत्? स्यात् योगः निश्चितम्. अस्तु, भवान् समीचीनतया उक्तवान्, स्या योगः तकारः, योगः नकारः, योगः इश्चितम्. तृतीयसोपाने किम् अभवत् महोदय?
तृतीयसोपाने इत्युक्ते तृतीय
सोपाने स्टेप् स्टेप् प्रथममासीत् स्यात् योगः निश्चितं, तदनन्तरं तकारः नकारः प्लस् इच्छितं, तदनन्तरं स्यायोगः नकारः अस्ति खलु, तकारस्य स्थाने नकारः आगतः.
तकारस्य स्थाने नकारः अस्ति. व्यञ्जनसन्धिः अस्ति वा?
व्यञ्जनसन्धिः इति सत्यं, किन्तु वयं दृष्टवन्तः आदेशः, आगमः, लोपः, प्रकृतिभावः, चतुर्षु कीदृशकार्यम् अस्ति?
अत्र तु आदेशः,
आदेशः, यतोहि तकारस्य स्थाने, स्थाने इति यथा भवति तत्र आदेशः. हा, बहु समीचीनम्. अग्रे.
सः कौन्तेय, स योग विसर्गयोग कौन्तेय भवति, स योग कौन्तेय भवति, स कौन्तेय. अत्र विसर्गस्य लोपः अस्ति, अतः लोपः भवति विसर्गसन्धिः.
लोपः इति कार्यमस्ति. अस्तु, तद् वक्तव्यम्. आदेशः वा आगमः वा अथवा लोपः अथवा प्रकृतिभावः, एतद् वक्तव्यमस्ति. अग्रे
यः एनं य योग विसर्गयोग एनं भवति य योग एनं भवति य एनं लोपः विसर्गस्य लोपः भवति. गुरु उत्तिष्ठ गुरु योग उत्तिष्ठ गुरु उत्तिष्ठः. अत्र परिवर्तनं न भवति अतः प्रकृतिभावः.
हा, समीचीनमस्ति, प्रकृतिभावः. अग्रे
अमि आश्रमः अमि योग आश्रमः आश्रमाः अमि आश्रमाः. अत्रापि परिवर्तनं न भवति अतः प्रकृतिभावः.
हा, इत्युक्ते सन्धिः भवितुम् अर्हति वस्तुतः, खलु? गुरुयोगः उत्तिष्ठ गुरु उत्तिष्ठ सवर्णदीर्घसन्धिः भवितुम् अर्हति किन्तु न भवति, प्रकृतिभावः तदा. अस्तु, अग्रे
पश्य कृष्ण भगिनि कृष्ण पश्चात्
अवगच्छामि अवगच्छामि. त्रीणि इति अस्ति खलु, तर्हि अस्माभिः चर्चितं, पुनः चतुर्थं पुटं गृहे पठतु, किन्तु सारांशत्वेन वदामि. यत्र त्रीणि इति भवति तत्र प्लुतस्वरः इति वदामः, ह्रस्वस्वरः दीर्घस्वरः प्लुतस्वरः इति त्रिविधाः स्वराः. ह्रस्व इत्युक्ते जानाति एकमात्रा कालेन अ इति, दीर्घः इत्युक्ते द्विमात्रा आ इति, प्लुत इत्युक्ते ततोपि अधिकम् अधिकमात्रकालेन कृष्ण आकारः हा इति प्लुतस्वरः. त्रीणि इति संख्यया तत्र सूचितमस्ति.
पश्य कृष्ण योग अत्र गोपिकाः नृत्यन्ति भवति. पश्य कृष्ण अत्र गोपिकाः नृत्यन्ति. अत्र परिवर्तनं न भवति अतः प्रकृतिभावः अस्ति.
प्रकृतिभावः. अग्रे
अहो योग अस्माकम् अहो अस्माकम् अत्रापि परिवर्तनं न भवति. ओकारस्य योग अकारम् अकारः भवति अतः प्रकृतिभावः अस्ति.
प्रकृतिभावः अस्ति. अस्तु, प्रकृतिभावस्य नियमाः सन्ति, कुत्र कुत्र तादृशप्रकृतिभावः भवति इति अग्रे परिशीलयिष्यामः. अस्तु, हा, समीचीनं. तर्हि आदेशः आगमः लोपः वा प्रकृतिभावः इति दृष्टः. अग्रिम अभ्यासः सुलभः एव. तत्र एकं दीर्घपदं संयुक्तपदं दत्तम् अस्ति, तत् पृथक् कृत्वा लेखनीयम्. अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् अर्जुन, तद् पृथक् पृथक् कृत्वा लेखनीयं. तद्वदेव अपराणि उदाहरणानि अपि. सुलभमेव अस्ति इति मन्ये. तर्हि अग्रे गच्छामः. अवधेयम् इति यदस्ति तद् पठेम अग्रिमपुटे. जगन्नाथमहोदय पठति वा?
सन्धिकार्यं कदा करणीयम् कदा न करणीयम् इति प्रश्नस्य उत्तरम् इदं भवति. प्रथम एकस्मिन् पदे सन्धिः नित्यं कर्तव्यः, यथा आविस् योगतः आविष्टः. धातूपसर्गः सर्गयोः सन्धिः नित्यं कर्तव्यः, यथा उपयोग अविशत् उपाविशत्. तृतीय समासे सन्धिः नित्यं कर्तव्यः, यथा लाभयोग अलाभौ लाभालाभौ. चतुर्थ वाक्ये तु सन्धिः विकल्पेन भवति, यथा देवदत्तो ग्रामं गच्छति. अत्र सन्धिद्वयं कृतं, देवदत्तः योगग्रामं देवदत्तो ग्रामं. द्वितीय ग्रामं योग गच्छति ग्रामं गच्छति.
देवदत्तः ग्रामं गच्छति, अत्र सन्धिकार्यं न कृतम्।
अस्तु, वदतु महोदय।
अस्तु, एकस्मिन् पदे नित्यं कर्तव्यः, यथा वयं युक्त्वा के शब्दाः शब्दान् लिखामश्चेत् तर्हि तत्र करणीयमेव। सन्धि यदा यदा भवन्ति तदा तदा सन्धि कर्तव्यं कर्तव्यः भवति।
एकस्मिन् एकस्मिन् पदे नाम आवश्योगः त, तत्र त इति प्रत्ययः अस्ति वस्तुतः, पठितः लिखितः तद्वत् प्रत्यययोजनेन एकं पदं निर्मितं भवति खलु, पदनिर्माणसमये सर्वदा सन्धिः कर्तव्यः, विकल्पः एव नास्ति, सन्धेः अवसरः अस्ति चेत् करणीयमेव इति।
धातु उपसर्गयोः नित्यं कर्तव्यः, तत्र अत्रापि उपसर्ग धातूनां मेलनं यदा भवति तदा नित्यं करणीयं, सन्धिकार्यं भवति नित्यं, यथा उपाविशत् एव वयं लिखितुं शक्नुमः, उप अविशत् तादृशं लिखितुं वा वक्तुं न शक्यते।
उपसर्गः उप इति उपसर्गः, तत् तस्मात् परः क्रियापदं वा किमपि अस्ति चेत् तत्र सन्धिः
अविशत् इति धातुपदम् अस्ति, तिङन्तपदं। समासे सन्धिनित्यं कर्तव्यः, यत् समस्तपदपदं यदा भवति चेत् तत्रापि कर्तव्यं, यथा लाभालाभौ, अत्र द्वन्द्वसन्धि भवति,
समासः
अत्र द्वन्द्वसमासः भवति, किन्तु लाभलाभौ तादृशं वयं वक्तुं न शक्नुमः, लिखितुमपि न शक्नुमः, लाभालाभौ एव भविष्यति। केवलं वाक्ये सन्धिविकल्पेन भवति, यदि वयं पृथक् शब्दान् पृथक् कृत्वा लिखामश्चेत् सन्धिः न भवति, युक्त्वा लिखामश्चेत् सन्धिः भवन्ति, तादृशं।
हा, विकल्पः अस्ति वाक्यस्तरे, इच्छामश्चेत् सन्धिः, नो चेत् न इति, तत् तदेव प्रदर्शितम् अत्र। अस्तु, एका टिप्पणी अस्ति महोदय अधोभागे, एकवारं तत् श्लोकं पठतु कृपया।
संहित एकपदे नित्या धातूपसर्गयोः, नित्या समासे वाक्ये तु सा विवक्षामपेक्षते। अस्तु, संहितैकपदे एकस्मिन् पदे एव नित्या, तर्हि सन्धिः कार्यं नित्यं भवति।
हा, इति प्रथमनियमः भवता पठितं,
प्रथमनियमः। नित्या धातु उपसर्गयोः तत्र तु द्वितीयनियमः, नित्या समासे तत्र तृतीयः नियमः, वाक्ये तु विवक्षामपेक्षते। अस्तु, वक्तुः इच्छा किम् इति निर्भरति, सन्धिवे कार्यं भवति वा न भवति इति।
हा हा, समीचीनमस्ति महोदय, इति चत्वारः नियमाः, कुत्र कुत्र सन्धिः भवति इति। अस्तु, अग्रिमभागं अभिनवमहोदय पठतु, यतोहि भवान् अधुनैव आगतवान्, अच् इत्युक्ते किं, हल् इत्युक्ते इति परिशीलयामः अग्रे, पठतु महोदय। सन्धिः त्रिविधः,
सन्धिः त्रिविधः, स्वरसन्धिः, अच् सन्धिः,
व्यञ्जनसन्धि, हल्सन्धि, विसर्गसन्धि च इति। स्वरसन्धि, स्वरात् स्वरे परे स्वरसन्धि भवति, यथा स्वरः योगः स्वरः। व्यञ्जनसन्धि, व्यञ्जनात् स्वरे, व्यञ्जनात् स्वरे, व्यञ्जने वा परे व्यञ्जनसन्धि भवति। व्यञ्जन योगः वर्णः,
व्यञ्जनम् योगः वर्णः,
व्यञ्जनम् योगः वर्णः।
हा, नपुंसकलिङ्गपदमस्ति व्यञ्जनम्, स्वरः पुल्लिङ्गपदमस्ति। अस्तु, अग्रे।
विसर्गसन्धि, विसर्गात् स्वरे व्यञ्जने वा परे विसर्गसन्धिः भवति। विसर्गः योगः वर्णः। स्वरसन्धिमध्ये स्वरस्य योगः स्वरः भवति, तत्र स्वरसन्धिः भवति। यथा अकारस्य योगः उकारः भवति, तत्र ओकारः भवति, तत्र स्वरसन्धिः भवति। व्यञ्जनसन्धिमध्ये व्यञ्जनस्य योगः व्यञ्जनात् स्वरे व्यञ्जने वा परे व्यञ्जनसन्धि। व्यञ्जनस्य योगः वर्णः भवति, यथा
यत्किमपि भवतु, वर्णः इत्युक्ते स्वरः भवतु अथवा व्यञ्जनं भवतु इति व्यञ्जनसन्धिः।
यथा कर्तुम् अर्हसि, कर्तुम् अर्हसि।
एवं कुर्मः, अग्रे पश्येम, उदाहरणानि अधोभागे वा अस्ति, किन्तु विसर्गसन्धिः इत्युक्ते,
विसर्गसन्धि इत्युक्ते विसर्गस्य योगः वर्णः भवति।
हा, इति विसर्गसन्धिः। अपि च स्वरसन्धेः अपरं नाम किम्?
अच् सन्धि।
हा, अच् इत्युक्ते किं महोदय, जानाति वा?
माहेश्वरसूत्रे,
हा, पञ्चमपृष्ठं पठतु कृपया, पञ्चमपृष्ठे पश्यतु तत्र।
अच् इत्युक्ते आ इ उ रि लृ ए औ ए ओ ऐ औ।
हा, तत्र सर्वे स्वराः अन्तर्भूताः सन्ति खलु। हा, तदर्थं स्वरसन्धिः इत्युक्ते अच् सन्धिः। तत्र पश्यतु, अकारः, इकारः, उकारः, ऋकारः इति कृत्वा सर्वे स्वराः अन्तर्भूताः अच् इत्यस्मिन् प्रत्याहारे। प्रत्याहारः इति उच्यते, वर्णानां समूहः, अतः स्वरसन्धिः इत्युक्ते अच् सन्धिः इत्यपि उच्यते। अस्तु, अपि च प्रत्याहारः इत्युक्ते वर्णानां समूहः, सङ्ग्रहः, ग्रूपिङ्ग्, तावदेव। अन्तिम पृष्ठस्य अधोभागे प्रत्याहारः इति अस्ति, इतोपि एकवारं गृहे पठतु, किन्तु सारांशत्वेन वर्णानां समूहः, अत्र अच् इति एकः प्रत्याहारः। अस्मिन् प्रत्याहारे भवान् उक्तवान् एव स्वरे सर्वे सर्वे स्वराः सन्ति इति, तदर्थम् अच् सन्धिः इत्युक्ते स्वरसन्धिः। हल्स् व्यञ्जनसन्धेः अपरं नाम किम्?
हल् सन्धि।
हा, हल् प्रत्याहारे के के वर्णाः?
सर्वाणि व्यञ्जनानि।
हा, इत्युक्ते पञ्चमसूत्रं पश्यतु, हयवरट् इति अस्ति खलु,
हयवर् ल नम गणनं
झबै, हा,
घड ध जब गड दस जब गडद ख फ छ ठ थ च ट त क प य श स स ह,
श श स ह इति। तत्र सर्वाणि व्यञ्जनानि हल् प्रत्याहारे अन्तर्भूतानि इति कृत्वा व्यञ्जनसन्धि इत्युक्ते हल् सन्धिः इति बुद्धम्? अस्तु, समीचीनमस्ति। तर्हि अग्रिम अभ्यासं वयं कृतवन्तः, गृहे कर्तुं शक्नुवन्ति, नवमे पुटे पश्यन्तु तत्र कीदृशसन्धिः इति वक्तव्यम्। अस्तु, यदि योगः अपि, यद्यपि एते, तत्र स्वरसन्धिः, इकारात् परः एकारः, तर्हि अभिनव महोदय चतुर्थं करोतु।
क्रोधात् योगः भवति, क्रोधात् भवति। अत्र तकारस्य स्थाने दकारः आगच्छति, अत्र व्यञ्जनसन्धिः अस्ति।
हा हा, समीचीनं, व्यञ्जनसन्धिः इत्यस्य उदाहरणं तावदेव, तद्वदेव अस्ति, सरलाः सरलानि उदाहरणानि एव। इतः अग्रे किञ्चित् पठेम, दशमे पुटे यदस्ति तदनन्तरं समापयामः। करपत्रं प्रायः अद्य पठितुं न शक्नुमः, किन्तु श्वस्तनवर्गे आरम्भादेव पठेम इति कृत्वा। अस्तु, अग्रे दशमे पुटे सरला भगिनी पठति वा?
आं भगिनि। ज्ञानवर्धिनी, एतानि वाक्यानि सावधानं पठत। विजया गीतां पठति। गोविन्दः प्रतिदिनं कार्यालयं गच्छति। सर्वे स्वीयानि कार्याणि अकुर्वन्। भवन्तः
वयं कुत्र स्मः?
एकनिमिष, दशमे पुटे महोदय। ज्ञानवर्धिनी, हा, सरला भगिनी।
अस्तु, एतेषु वाक्येषु सर्वेपि शब्दाः पदानि इति उच्यन्ते। तानि गणद्वये भवन्त विभक्तुं शक्यानि, यथा विजया, गीता, गोविन्दः, प्रतिदिनं, कार्यालयं, सर्वे स्वीयानि कार्याणि, भवन्तः, विलम्बः, मा। द्वितीय भागमस्ति पठति, गच्छति, अकुर्वन्, कुर्वन्तु। एतत् वाक्यानि सन्ति, वाक्यानि तस्य द्विविधं भजनं भवति। एकविधं तत्र सर्वाणि नामानि वा अव्यवा सन्ति, द्वितीयभागे क्रियापदानि सन्ति।
हा, प्रथमभागे विजया गीता नामपदानि अथवा व्याकरणरीत्या सुबन्ताः इति उच्यन्ते। अस्तु, द्वितीयभागे क्रियापदानि ते तिङन्ताः इति उच्यन्ते। अधुना लक्ष्मी भगिनी, एते सुबन्ताः इति पठति वा तं भागम्?
आं भगिनि, एते सुबन्ताः, सुप् अन्ते यस्य सः सुबन्तः। तु औ जस्, अम् औट् सस्, ताभ्यां भिस्, नेभ्यां भ्यस्, नसिभ्यां भ्यस्, नस् ओस् आम्, नि नि ओस् सुप्। एते एकविंशतिः सुप् प्रत्ययाः। प्रातिपदिकात् परे एते प्रत्ययाः भवन्ति, तदा रामः, रामौ, रामाः इत्यादीनि एकविंशतिरूपाणि सिद्ध्यन्ति। यथा रामयोगः सु रामः भवति, रामयोगः औ रामौ भवति, रामयोगः जस् प्रत्ययः रामाः भवति।
किञ्चित् प्रतिपादयतु।
अत्र सुबन्ताः इत्युक्ते किम् इति अस्ति, यस्य अन्ते सुप् प्रत्ययाः, यस्य अन्ते सुप् प्रत्ययाः सन्ति ते सुबन्तपदाः, ते सुबन्ताः। सुप् इत्युक्ते प्रथमतया तत्र रक्तवर्णे सु इति प्रत्ययनाम अस्ति, अनन्तरम् अन्ते सुप् अपि अस्ति। एते
हा हा, सुप् इति प्रत्ययस्य पकारः एव गृहीतः, अन्तिमप रक्तवर्णे अस्ति पकारः,
रक्तवर्णे पकारः अस्ति। एते एकविंशतिः सुप् प्रत्ययाः।
हा, इत्युक्ते पुनः पाणिनिना संक्षेपार्थं सुप् इति उक्तं तावदेव. किन्तु अस्माभिः ज्ञेयं यत् सुप् इत्यस्मिन् एकविंशतिः 21 प्रत्ययाः खलु, एकविंशति रूपाणि भवन्ति खलु नामपदानां विभक्तिरूपाणि, एकवचने द्विवचने बहुवचने सप्तसु विभक्तिषु इति कृत्वा. हा, कथं सिद्ध्यन्ति इत्युक्ते एतैः प्रत्ययैः सिद्ध्यन्ति तानि रूपाणि. तेषां नाम किं?
सुबन्ताः.
हा, सुबन्ताः. अस्तु, न सुप् प्रत्ययाः इति एकविंशति. अस्तु, यदा सुप् प्रत्ययः योजनेन एकं पदं निष्पन्नं भवति यथा रामः अथवा रामौ रामाः, ते सुबन्ताः. यतोहि सुप् इत्यस्मिन् अन्यतमः प्रत्ययः युज्यते इति कृत्वा सुबन्ताः. नामपदानि इत्युक्ते सुबन्ताः इति. बुद्धम्? हा, अस्तु. विद्या भगिनी अस्ति वा?
आम् आं भगिनि.
तत्र तिगन्ताः इति पठित्वा समापयामः.
एते पठति, गच्छति, अकुर्वन्, कुर्वन्तु, एते तिङन्ताः. तिङ् अन्ते यस्य सः तिङन्तः. तिप् तस् झि, सिप् तस्थ, मिप् वस् मस् परस्मैपदं, त आतां झ, तास् आथां ध्वम्, इद् वहि महिङ् आत्मनेपदम्. एते अष्टादश तिङ् प्रत्ययाः. धातोः परे एते प्रत्ययाः भवन्ति. तदा भवन्ति, तदा भवति, भवतः, भवन्ति इत्यादीनि रूपाणि सिद्ध्यन्ति. यथा भूयोगः तिप् भवति, भूयोगः तस् भवतः, भूयोगः जि भवन्ति इति. धातुः आत्मनेपदी चेत् तङ् प्रत्ययाः अन्तिमाः नव भवन्ति. यथा वदयोगः त, वन्दयोगः त वन्दते, वन्दः वन्दयोग आतां, वन्दे वन्देते, वन्दयोगः झ वन्दन्ते इति. अत्र तिङन्तपदम् इत्युक्ते किम् इति दत्तमस्ति. तिङन्तं तिङन्तः इत्युक्ते तिङ् यस्य अन्ते अस्ति तत् तिङन्तः इति. अत्र तिङ् तिङ् इति पदं कथं कथम् आगच्छति इत्युक्ते, तिङ् प्रत्ययः कथम् आगच्छति इत्युक्ते, अत्र तिप् इति आरम्भं भवति परस्मैपदस्य प्रथमप्रत्ययः तिप्. तत्र ति इति स्वीकुर्मः. अपि च आत्मनेपदे अन्तिमप्रत्ययः अस्ति महिङ्, तत्र नकारः स्वीकुर्मः चेत् ति योगः नकारः तिङ् इति इति रूपं निष्पन्नं, तिङ् प्रत्ययः इति वदामः. एते अष्टादश प्रत्ययाः सन्ति. एते एव क्रियापदानि अपि अस्ति. एते प्रत्ययाः तिङ् प्रत्ययाः धातोः अनन्तरम् आगच्छन्ति. उदाहरणार्थं यदि भूयोगः तिप् इति अस्ति तदा भवति इति क्रियापदं भवति. भूयोगः तस् भवतः इति भवति. भूयोगः जि इति अस्ति चेत् भवन्ति इति भवति. परस्मैपदी क्रियापदानि.
हा, समीचीनं भगिनि. अत्र तिप् इत्यस्य पकारः गच्छति, ति इत्येव अवशिष्यते. सकारस्य विसर्गः कथम् इति एका प्रक्रिया अस्ति, पाणिनीयव्याकरणवर्गेषु पाठ्यन्ते. परन्तु झकारः अपि अन्ति इति भवन्ति भवति, एकं सूत्रमस्ति झोन्तः. तर्हि कथञ्चित् एतेषां मूलप्रत्ययानाम्, अत्र अष्टादशप्रत्ययाः मूलतिङ् प्रत्ययाः, तेषां परिवर्तनं भवति. अस्तु, एतत्तु लट् लकार, लोट् लकारे भवतु, भवतां, भवन्तु इति भवति खलु, उकारः आगच्छति अन्ते, तत् सर्वं भिन्ना वार्ता. परन्तु मूल अष्टादश तिङ् प्रत्ययाः भवन्ति, तेषां योजनेन निष्पन्नानि पदानि क्रियापदानि अथवा किं भगिनि?
तिङन्तपदानि.
हा, तिङन्ताः इति उच्यन्ते.
तिङन्ताः.
अस्तु, अन्तिमवाक्यं.
धातुः आत्मनेपदे चेत् तङ् प्रत्ययाः इति अस्ति. नव आत्मनेपदी तिङ् प्रत्ययः अस्ति. वन्दयोगः त इति उदाहरणे वन्दते इति भवति, वन्दयोगः आतं वन्देते इति भवति, वन्दयोगः ज वन्दन्ते इति रूपं निष्पन्नम्।
हा समीचीनं, किन्तु मूलतिङ्प्रत्ययाः तु आत्मनेपदीनाम् एते एव त आतां झ था सातां त्वम् इड्वहि महिङ्गिति। अस्तु, इति सुबन्तानां च तिङन्तानां विषयः। अन्तिमवाक्यं पठतु भगिनि।
सुबन्तानां तिङन्तानां च पदम् इति संज्ञा, तिङन्तानां सुबन्तानां च समूहः वाक्यं, तदुक्तम् अमरकोशे तिङ्सुबन्तचयो वाक्यम्। यदि सुबन्तपदम् अस्ति अथवा तिङन्तपदम् अस्ति चेत् द्वयोः अपि पदसंज्ञा प्राप्नोति। तिङन्तानां सुबन्तानां सङ्ग्रहः वाक्यस्तरे अस्ति, वाक्ये अस्ति। अनन्तरम् अमरकोशे तिङ्सुबन्तद्वयोः सङ्ग्रहवाक्यमिति वदति, अमरकोशः वदति।
हा समीचीनं, तर्हि तिङन्ताः सुबन्ताः इत्येषां पदम् इति नामकरणं यथा भगिनी पृष्टवती खलु, एकं सूत्रमपि अस्ति सुप्तिङन्तं पदम् इति। हा तत्र तेन पदसंज्ञा भवति, यः कोऽपि यत्किमपि पदं सुबन्तः अथवा तिङन्तः चेत् तस्य पदम् इति संज्ञा। नाम संस्कृतभाषायां वर्णमालायाः अक्षराणि सन्ति अ इ उ रुलृ, एतेषां पदसंज्ञा नास्ति। यत्किमपि सुबन्तम् अथवा तिङन्तमस्ति चेदेव पदसंज्ञा अथवा पदम् इति भवति। अस्तु, एतेषां पदानां समूहः एव वाक्यम् इति उक्तम्। सत्यं भगिनि, संज्ञा इत्युक्ते नामकरणम् इति।
तत्र सूत्रे इति संज्ञा लोप भवति, तत्रापि संज्ञा पदम् आगच्छति।
एकनिमिष, कस्य लोप भवति इति?
सोपदेशे
सत्यम्, ओ इत्युक्ते रामयोगः सु इति, तस्मिन् सु इति न भवति, तदा अपि पदसंज्ञा इति वा भवत्याः प्रश्नः? कस्य लोपः भगिनि?
प्रत्ययस्य लोपः भवति ललक।
हा हा, प्रत्ययस्य लोपः भवति चेदपि प्रत्ययः आगतः, प्रत्ययेन कार्यं कृतं, तदर्थं सुबन्तम् इति उच्यते।
भगिनी क्षम्यतां, मया गन्तव्यम्।
अस्तु अस्तु अस्तु, वर्गः समाप्तः एव, श्वः करपत्राणां पठनं। हा
अस्तु, धन्यवादः।
अत्र अमि आश्रमाः इति अस्ति। अमि आश्रमाः इत्युक्ते एते आश्रमाः इति अर्थम्।
आमाम् इति अस्ति, तदपि तत्र सर्वनामपदमेव अस्ति, अदस् प्रातिपदिकम् इति चिन्तयामि। यथा एतत् एते एतानि इति सर्वं भवति खलु, अथवा सः तौ ते तद्वद् इति अस्ति सर्वनामपदम्।
धन्यवादः।
अस्तु अस्तु, तर्हि श्वः करपत्राणां पठनम् आरभ्यते। प्रश्नाः न सन्ति चेत् वर्गे मिलामः श्वः।
धन्यवादः भगिनि, शुभरात्रिः।
धन्यवादः, शुभरात्रिः। शुभरात्रिः।